शिरसा देवं गौरी पुत्रं विनायकं भक्तवासं स्मरे नित्या मायुष्का मार्दये प्रथमं वक्रतुंडं च एकदंतं द्वितीयकं तृतीयं कृष्णपिंडाक्षं गजवक्तं चतुर्थकम् लंबोदरं पंचमं च षष्ठं विकटमेव च सप्तमं विघ्नराजं च भूमवर्णं तथाष्टकम् नवमं बालचंद्रं च दशमं तु विनायकं एकादशं गणपतिं द्वादशं तु गजाननम् द्वादशैतानि नामानि त्रिसंध्यः यः पठेन्नरः न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् विद्याद्धि लभते विद्यां धनाद्धि लभते धनं पुत्राद्धि लभते पुत्रा मोक्षाद्धि लभते गतिम् जपे गणपति स्तोत्रं षड्भिर्मासे फलं लभे संवत्सरेण सिद्धिं च लभते नात्र संशयः अष्टाभ्यों ब्राह्मणानं च लिखित्वा यः समर्पयेत् तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ॐ ह्रीं ह्रीं